अथ द्वितीयः पादः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्धम् नपुंसकम् द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन क्तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च तृजकाभ्याम् कर्तरि च नित्यम् क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्याम् क्त्वा च शेषो बहुव्रीहिः अनेकमन्यपदार्थे सङ्ख्यया व्यया सन्नादूराधिकसङ्ख्याः सङ्ख्येये दिङ्नामान्यन्तराले तत्र तेनेदमिति सरूपे तेन सहेति तुल्ययोगे चार्थे द्वन्द्वः उपसर्जनम् पूर्वम् राजदन्तादिषु परम् द्वन्द्वेघि अजाद्यदन्तम् अल्पाच्तरम् सप्तमी विशेषणे बहुव्रीहौ निष्ठा वाहिताग्न्यादिषु कडाराः कर्मधारये इति द्वितीयः पादः।